शुभमाप्तं शुभमस्तु परं ततो जगतः ओम प्रणम्य जगदुत्पत्ति स्थिति संहार कारणं स्वर्गापवर्गयोर्द्वारं त्रैलोक्य शरणं शिवं ओम यत्कृतं सुकृतं किञ्चित् कृत्वैवं रुग्मनिश्चयम् मुञ्चन्तुदन्तवस्तेन नित्यमातङ्कसंस्थितम् अथ सारङ्गधरसंहिता ॐ स्त्रियं सतद्यात् भवतां पुरारव्यतं गतेजः प्रहरे भवानी विराजते निर्मलचन्द्रिकायां महोषधीवाज्वलिताय माद्रौ ॐ अल्पायुषमल्पदिया निदानी कृतं समस्तश्रुतिपाठशक्त्याम्
अमूर्तिरनघोषिन्त्योभयकृद्भयनाशनः अनुर्बृहत्कृतस्तोलो गुणगुर्निर्गुणो महान् राष्ट्रं वै भारः Oh.